अथ श्रीलक्ष्मीस्तोत्रम् इन्द्र उवाच ॐ नमः कमलवासिन्यै नारायण्यै नमो नमः कृष्णप्रियायै सारायै पद्मायै च नमो नमः पद्मपत्रीक्षणायै च पद्मास्यायै नमो नमः पद्मसनायै पद्मिन्यै वैष्णव्यै च नमो नमः सर्वसम्पत्स्वरूपायै सर्वदात्र्यै नमो नमः सुखदायै मोक्षदायै सिद्धिदायै नमो नमः हरिभक्तिप्रदात्र्यै च हर्षदात्र्यै नमो नमः कृष्णवक्षस्थितायै च कृष्णेशायै नमो नमः कृष्णशोभास्वरूपायै रत्नपद्मे च शोभने सम्पत्यधिष्ठात्रिदेव्यै च महादेव्यै नमो नमः शस्याधिष्ठातृदेव्यै च शस्यायै च नमो नमः नमो बुद्धिस्वरूपायै बुद्धिदायै नमो नमः वैकुण्ठेया महालक्ष्मीर्या लक्ष्मी क्षीरसागरे स्वर्गलक्ष्मीरिन्द्रगेहे राजलक्ष्मीर्नृपालये गृहलक्ष्मीश्च गृहिणाङ्गेः च गृहदेवता सुरभिः सागवां माता दक्षिणायज्ञकामिनी अदितिर्देवमाता त्वं कमला कमलालये स्वाहा त्वयि च हविर्दाने कव्यदाने स्वधा स्मृता त्वं हि विष्णुस्वरूपा च सर्वधारा वसुन्धरा शुद्धसत्त्वस्वरूपा त्वं नारायणपरायणा क्रोधहिंसावर्जिता च वरदा च शुभानना परमार्थप्रदा त्वयि च हरिदास्य प्रदा परा यया विना जगत्सर्वं भस्मीभूतमसारकं जीवन्मृतै च विश्वै च शवतुल्यया विना सर्वेषाय च परा त्वं हि सर्वबान्धवरूपिणी यया विना न सम्भाष्यो बान्धवैर्बान्धवः सदा त्वया हीनो बन्धुहीनो त्वया युक्तः स बान्धवः धर्मार्थकाममोक्षाणान् त्वयि च कारणरूपिणी यथा मातास्तनन्धानां शिशूनां शैशवे यथा तथा त्वं सर्वदा माता सर्वेषां सर्वरूपतः मातृहीनस्तनान्धश्च सचेज्जीवति दैवतः त्वया हीनो जनक कोऽपि न जीवत्येव निश्चितम् सुप्रसन्नस्वरूपा त्वं मां प्रसन्ना भवाम्बिके वैरिग्रस्तै च विषयन् देहि मह्यं सनातनि वयैयावत्त्वया हीना बन्धुहीनाश्च भिक्षुकाः सर्वसम्पद्विहीनाश्च तावदेव हरिप्रिये राज्यं देहि श्रियं देहि बलं देहि सुरेश्वरि कीर्तिं देहि धनं देहि यशो मयै च देहि वै कामं देहि मतिं देहि भोगान् देहि हरिप्रिये ज्ञानं देहि च धर्मै च सर्वसौभाग्यमीप्सितम् प्रभावै च प्रतापै च सर्वाधिकारमेव च जयं पराक्रमै युद्धे परमैश्वर्यमेव च इदं स्तोत्रं महापुण्यं त्रिसन्ध्यैः पठेन्नरः कुबेरतुल्यः स भवेत् राजराजेश्वरो महान् सिद्धस्तोत्रैः यदि पठेत् सोऽपि कल्पतरुर्नरः पैचलक्षजपेनैव स्तोत्रसिद्धिर्भवेन्नृणां सिद्धिस्तोत्रैयदि पठेन्मासमेकै च संयतः महासुखी च राजेन्द्रो भविष्यति न संशयः इति श्रीब्रह्मवैवर्तपुराणे इन्द्रकृतल्लक्ष्मीस्तोत्रम् सम्पूर्णम्।